नमो नमः सहृदयाः श्रोत्रीगणाः संस्कृत साप्ताहिक्याः प्रभागेस्मिन् भवतां सर्वेषां हार्दिकं स्वागतं व्यवहरामि। भवतां रसाप्लुतानां रसास्वादयुतं प्रभागमादाय पुनरेकवारम् उपस्थितास्मि कार्यक्रमस्य उद्घोषिका डॉक्टर सुषमा कुमारी। अये बुद्धिश्रेष्ठाः श्रोतारः, कार्यक्रमस्यास्य प्रारम्भः सुमधुरेण सुभाषितेन क्रियते, तच्च प्रस्तौति प्रिया भगिनी ऋचा झाः।
चित्ते प्रसन्ने भुवनं प्रसन्नम्, चित्ते विषर्णे भुवनं विषर्णम्, अतोभिलाषो यदि ते सुखे स्यात्, चित्तप्रसादे प्रथमं यतस्व।
श्रोतृवृन्दः, अधुना वयम् अग्रेसरामः प्रसङ्ग प्रभागं प्रति। प्रभागेऽस्मिन् रिङ्कु जोशी वर्या श्रावयति।
नमस्ते सदा ब्रह्मचर्याय तुभ्यं, नमस्ते सदा वायुपुत्राय तुभ्यं, नमस्ते सदा पिंगलाक्षाय तुभ्यं, नमस्ते सदा राम भक्ताय तुभ्यम्।
अयि कर्णप्रियाः मित्राणि, साम्प्रतं साप्ताहिकी वार्ताश्रेण्यां प्रस्तूयते साप्ताहिकः वैश्विकवृत्तान्तः। अस्यां श्रेण्याम् अखिलजगतः साप्ताहिकीः वार्ताः समुपस्थापयति मृदुभाषिणी मुदिता वेतालः।
प्रधानमन्त्री नरेन्द्र मोदी मुद्रा योजनायाः एकादश वर्ष पूर्तौ अवोचत् यत् अनया योजनया युवभ्यः अवसर प्रदाने साहाय्यम् अभवत्। भारतेन अमेरिका ईरानयोः मध्ये संघर्ष विरामस्य स्वागतं कृतम्। उक्तं च अनेन पश्चिम एशियायां स्थायी शान्तिः आगमिष्यति। असम पुदुच्चेरी केरलम् राज्येषु विधानसभा निर्वाचनेभ्यः मतदानं गुरुवासरे सञ्जातम्। हॉकी इंडिया इत्यनेन अर्जेंटीना दलेन सह स्पर्धायै चतुर्विंशतिः सदस्यानां महिला दलस्य घोषणा कृता।
अयि गणमान्याः रसान्विताः श्रोतृजनाः, अद्य ज्ञान विज्ञान नामधेये अस्मिन् साक्षात्कार प्रभागे अस्माभिः सार्धं वार्तालापाय समुपस्थिताः विद्यन्ते उत्तर प्रदेशस्य देवर्या स्थितस्य श्री विद्या धर्म संवर्धिनी संस्कृत महाविद्यालयस्य भूतपूर्व आचार्य डॉक्टर सिंहासर पाण्डेय वर्याः। साम्प्रतं मम भ्राता पुनीत त्रिपाठी।
नमो नमः प्रियाः श्रोतारः, आकाशवाण्याः प्रसारितेऽस्मिन् संस्कृत साप्ताहिकी कार्यक्रमस्य ज्ञान विज्ञान प्रभागे अद्य ये विशिष्टाः जनाः अस्माभिः सह सन्ति, ते देवर्या स्थितस्य संस्कृत महाविद्यालयस्य साहित्य विभागाध्यक्षचराः। अद्य भवन्तः आधुनिक विषयेषु स्वलेखिन्याः चमत्कारं प्रसारयन्ति। भवन्तः संस्कृत भाषायाः महालेखकेषु अन्यतमाः सन्ति। भवन्तः सन्ति सम्माननीयाः डॉक्टर सिंहासन पाण्डेय महोदयाः।
भवतेऽपि धन्यवादः, शुभकामना शुभाशिषस्य लक्षन्तु।
महोदयः, सर्वप्रथमं वयं ज्ञातुमिच्छामः यत् संस्कृत भाषां प्रति भवतः प्रवृत्तिः कथम् अजायत्। किम् एतत् समग्र परम्परातः निष्पन्नम् अस्ति, अथवा भवानेव परिवारस्य प्रथमः जनः यः संस्कृत भाषायाः सेवाम् अचिनोत्? कृपया अस्माकं श्रोतृसमूहं निर्दिशेत्।
मम परिवारे कोऽपि संस्कृतज्ञः नासीत्, किन्तु बाल्यकालतः एव मम संस्कृतं प्रति अभिरुचि सहजरूपेण संजाता आसीत्। अयम् ईश्वरीय प्रसादः अस्ति, ईश्वरीयानुकम्पा अस्ति, फलतः पूज्य पितृवर्यस्य प्रेरणया मम नामाङ्कनं संस्कृत विद्यालये संजातम्। अतः संस्कृताध्ययनं प्रति मम रुचिः क्रमशः वर्धते स्म। अहं मम सौभाग्यम् अनुभवामि ईश्वरस्य प्रसादं मन्ये यत् संस्कृताध्ययने मम समय क्रमशः तत्र गच्छति स्म। संस्कृताध्ययनं परमं तपः इति कृत्वा अस्याः भाषायाः अध्ययनं करणे गुरूणां निर्देशानुसारं ममाध्ययनं जायते स्म। देवर्यायां मम आदर्श गुरुवर्याः आसन् पंडित मातादेवी शर्मा महोदयः, पंडित रामावध मिश्र महोदयः, सम्पूर्णानन्द विश्वविद्यालये मम आचार्याः प्रोफेसर वायुनन्दन पाण्डेयः आसन्। येषां गुरुचरणानाम् अधिच्छायं मम काव्यानां लक्षणग्रन्थानां सविशेषम् अध्ययनम् अजायत। एतैः समुत्साहितः ईश्वरीय कार्यमेव अहं स्वाध्ययनं करोमि स्म।
शोभनं महोदय, तर्हि श्रोतारः ज्ञातुम् इच्छन्ति यत् भवान् वर्तमान काले साहित्यस्य स्थितिं कथं पश्यति, विशेषतः भोजपुरी भाषायां भाषिक भदेशतायाः विषये भवतः कः विचारः, यतोहि भवान् अपि अस्याः भाषायाः भाषिकः अस्ति इति धिया प्रश्नोऽयं समुत्थितः।
अहं वक्तुं शक्नोमि यत् अधुनातन समयेपि संस्कृत साहित्यस्य साधीयसी स्थितिः आलोक्यते। युवानः विद्वांसः कवयः नूतन नूतन सर्जनानि आतन्वन्ति। यद्यपि अधुनापि नूतनाः ललिताः कथाः क्रियन्ते, उपन्यासाः लिख्यन्ते, नाटकानि रच्यन्ते, नवगीतानि अपि लिख्यन्ते श्रूयन्ते च। आभाषिक पटले रससिद्ध कविवर्याणां समवायः प्रायेण दृश्यते। अतः सबहुमानं वक्तुं शक्यते यत् संस्कृत साहित्यस्य अधुनातनी स्थितिः परमं संतोषावः उत्तमा च वर्तते। भवता भोजपुरी भाषायां भदेशता इति विषये यः प्रश्नः उत्थापितः, या जिज्ञासा कृता, तत्र वक्तुं शक्नोमि सः प्रश्नः सहजः समयानुकूलः च वर्तते। यद्यपि अहं भोजपुरी भाषी अस्मि, अतः भोजपुरी भाषायां या अश्लीलता दृश्यते तद् विषये किमपि निवेदयितुं कामये। नलचम्पूकारेण एकं वचनं निगदितं, तत्र अस्ति ग्राम्य कवि कथा बन्ध इव नीरसस्य मनोहरः। यः ग्राम्यः कविः भवति तस्य रचना सर्वेषां मनोहरा न भवति, यः जनः नीरसः भवति तस्मै एव सा रचना। एतादृशी स्थितिः भोजपुरी भाषायाम् अपि अस्ति। अश्लीलता लोकव्यवहारे प्रायः अनुगुणा एव तत्र मन्यमाना दृश्यते, किन्तु साहित्य सर्जनायाम् अश्लीलता रोग इव मन्यते, प्रायेण श्रृंगार रसे अश्लीलता समायाति। किन्तु यदि श्रृंगारे अश्लीलता भवति तदा सः श्रृंगारः रुग्ण इव मन्यमानः भवति। अतः अश्लीलता सर्वथा परिहर्तव्या। अश्लीलतां विनापि भोजपुरी भाषायां रचना भवति, यथा रघुवीर सिंह महोदयेन रचना कृता बटोहिया इति। सुंदर सुभूमि भैया भरत की देशवासी, मोरे प्राण बसे हिम खोहरे बटोहिया। एतादृशी भोजपुरी रचना अस्मान् प्रेरयति, प्रोत्साहयति, सुखयति, मनोहारिणी च सिद्धा जायते। अत्र अहं निसंकोचं कथयामि यत् अश्लीलता कदापि उचिता न मन्यते। यद्यपि लोकव्यवहारे प्रायेण ग्रामीण जनाः यदा एकीभूताः भवन्ति तदा तेषां संवादे अश्लीलतायाः कश्चन अंशः सहजरूपेण श्रूयते, किन्तु मञ्चे सभ्य समाजे साहित्य सर्जनायाम् अश्लीलता सर्वथा त्याज्या एव भवतु इति मम मतम् अस्ति।
अस्तु महोदय, मया भवन्तः प्रार्थ्यन्ते यत् अस्मत् श्रोतृवृन्देभ्यः एकं हास्यरसपूरितं स्वानुदितं च कृतिं श्रावयन्तु इति।
प्रायेण हास्य कवितायाः अभावः इव दृश्यते। यद्यपि नाटकेषु विदूषक पात्रस्य उपस्थितौ हास्यरसस्य स्थितिः जायते, नैषधादौ महाकाव्येऽपि हास्यरसस्य संस्थितिः द्रष्टुं शक्यते। हासस्थायी भावः हास्यरसः अभिमतः। अयं रसः जीवने औषधमिव मन्यते। औषधं विना शरीरं स्वस्थं न भवति, अतः हासं विना जीवनस्य स्वारस्यं तत्र प्रवर्तते। कोऽपि जनः खिन्नः भवति, यदि किमपि मित्रं तं हासयति तदा तस्य मनः प्रफुल्लं जायते, अतः जीवने हासस्य स्थितिः परमावश्यकी वर्तते। हासः कथं जायते? जीवने यः विकारः अस्ति काचित् घटना एतादृशी जायते यस्य दर्शनेन हासः समुपजायते। मयापि मित्राणाम् अनुरोधात् हास विषये हास्य कविताः लिखिताः कृताः ताः रचनाः इदानीं तत्र पठ्यन्ते। मान्याः हास्य कवितायाः तत्र स्थितिः इदानीमपि युवकवीनां समवाये सन्तोषावः अभिमता दृश्यते। मम कविता अस्ति कश्चन युवकः स्वकीयां प्रेयसीम् आलिङ्गति, किन्तु आलिङ्गने सः सुखं नानुभवति, स तु शाटिकायाः मूल्यनिर्धारणं कर्तुम् उत्सुकः जायते दृश्यते। कविता अस्ति निजकान्तां समाश्लिष्य मुग्धः प्रमुदितो युवा निमग्नः शाटिका मूल्ये धन्या तस्य विदग्धता। मुग्धः कश्चन प्रमुदितः युवा निजकान्तां प्रेयसीं समाश्लिष्य आलिङ्गनं कृत्वा तत्र सुखं नानुभवति मोदते न अपितु शाटिका मूल्ये निमग्नः, मम प्रेयस्याः शाटिका कियता मूल्येन क्रीता वर्तते। आहा धन्या तस्य यौनः विदग्धता दृश्यते, अत्र हासः समुपजायते। एका अन्या कविता अस्ति कूपात् जलं समानेतुं सुन्दरी महिला गता दुर्दृष्टया पतिता कूपे यूनां वर्गः समागतः। अहम् अग्रे त्वहं चाग्रे महिलोद्धार चिन्तितो वृद्धः कूपगतस्तां च कराभ्यां नीतवान् अहो। एका अन्या स्थिति अस्ति दुहितस्य दुहितुश्च पितुः वरवीक्षणके वयसा प्रगतं न हि मानयते युवकोऽपि शिरोरुहहीनतया सबरो जनकेन समोभिमतः।
श्रुत्वा मनः प्रसन्नः जातः। महोदय, चायपानस्य परम्परा तु आदौ एव भवति, परञ्च अस्य कार्यक्रमस्य मध्ये एव वयं भवतः चायोष्णमाहात्म्यं कतिपयैः पद्यैः श्रोतुमिच्छामः। कृपया अनेन वाचिकोष्णिकपानेन श्रोतृवृन्दान् अनुगृह्णन्तु भवन्तः।
चायपानस्य महिमा सर्वैः ज्ञायते एव। इदानीम् अहं भवतः अनुरोधात् स्वकीयं काव्यं तत्र पठितुम् इच्छामि। शीर्षकम् अस्ति चाय महिमा। शैत्येन वेपथुमती तनुरस्तु हाचे कस्यापि वा शिरसि जन्महति व्यथा स्यात् तद्वारणे कथमिहैव न कापि चिन्ता कान्ता करार्पित सुचायमहो निपेयम्। अन्यत् पद्यम् अस्ति यदा प्रातःकाले समाचार पत्र वाचन काले यदि कश्चन जनः चायपानं कर्तुम् उत्साहते तदा कियत् सुखास्पदं वातावरणं जायते। पद्यम् अस्ति यदा सुप्रभातम् धरिण्यां विभातम् यदाप्तं समाचारपत्रं द्रुतं वा तदा तन्निरीक्षावधौ दत्तचित्तः पिबञ्चायमुष्णं न को मोदते न।
पद्यैः चायस्य रसास्वादनं नूतनमेव अनुभवम्। महोदय, भवता प्रकल्पिताय बहुमूल्य समयदानाय ज्ञानानुरञ्जक साक्षात्काराय च भूयशः धन्यता वचांसि प्रकटयन् आकाशवाणीति पक्षतः अहं पुनीत त्रिपाठी नौमि। पुनः यदा वयम् आवाहयिष्यामः तदा पुनः आगच्छन्तु इति निवेदनं कृत्वा साक्षात्कारमिमं समापयामि। एवञ्च साहित्य सिंहासने चिरं तिष्ठेतयं सिंहासन पाण्डेयः इति च प्रभुं प्रार्थयामि।
भवता मह्यम् अवसरः कल्पितः दत्तः, अतः भवते पुनीत त्रिपाठी महोदयाय शुभकामनां शुभाशिषं च व्यनज्मि। आकाशवाणी परिवाराय मङ्गलकामनां यच्छामि। जयतु भारतं, जयतु संस्कृतं।
नमो नमः।
अयि सुधीजनाः आगच्छन्तु, अधुना अग्रे सरामः संस्कृत दिग्दर्शिनीं प्रति प्रभागेऽस्मिन् संस्कृत जगति संस्कृत भाषायाः प्रचार प्रसाय पोषणाय च समनुष्ठितानां शुभ कार्यक्रमाणां विषये विस्तरेण सूचनां प्रददाति साधना शर्मा।
कामेश्वर सिंह दरभंगा संस्कृत विश्वविद्यालये आयोज्यमानस्य सीनेट इत्यस्य कृते कुलपतेः प्रोफेसर लक्ष्मी निवास पाण्डेय महोदयस्य अध्यक्षतायां समीक्षा सभा आयोजिता। जनक नन्दिनी महिला छात्रावासे गीता पारायणस्य सफलं समापनं जातम्। अशेषेपि देशे जनगणनायां संस्कृत भाषायाः मातृभाषा रूपेण समावेशनस्य आह्वानं क्रियते। केन्द्रीय संस्कृत विश्वविद्यालये समर्थ पोर्टल द्वारा प्राक् शास्त्री प्रवेशः प्रारब्धः। कुण्डली शोधपत्रिकायै नाथ पंथ योग भारतीय ज्ञान परम्परा विषयेषु शोधपत्राणाम् आमन्त्रणम्। श्री जगन्नाथ संस्कृत विश्वविद्यालये कुलपति रूपेण प्रोफेसर प्रहात कुमार महापात्र महोदयः नियुक्तः। जगद्गुरु रामानन्दाचार्य राजस्थान संस्कृत विश्वविद्यालयस्य कुलपतेः राज्यपालेन सह शैक्षणिक विषयेषु चर्चा जाता। मधुबन्याम् अन्ताराष्ट्रिय ज्योतिष सम्मेलनम् सम्पन्नम्। तृतीयम् वैश्विकम् संस्कृत महिला सम्मेलने पञ्चदश राष्ट्राणाम् सहभागिता भवति। संस्कृत AI विषये अन्ताराष्ट्रिय सम्मेलनम् एरिया यूनिवर्सिटी इति द्वारा आयोज्यते।
प्रियाः श्रोतारः, सर्वविदितमस्ति यत् प्रभागेऽस्मिन् वयम् बाल मनरोचक विषये जानीमः। बाल मनोवल्लर्याः वेलायाम् भ्राता गणेश हेगडे कथामेकम् श्रावयिष्यति। साम्प्रतम् शृणुमः।
एकः परमः देवभक्तः आसीत्। सः प्रतिदिनम् भक्त्या देवस्य प्रार्थनाम् करोति स्म। देव कृपया मह्यम् आरोग्यम् ददातु, धनम् ददातु, साहाय्यम् करोतु इति। सः किञ्चिदपि प्रयत्नमपि न करोति स्म, कार्यमपि न करोति स्म। देवः साहाय्यम् करिष्यति इति तस्य विश्वासः आसीत्। एकस्मिन् दिने सः वृषभशकटे गच्छति स्म। मृण्मार्गः आसीत्। तदा वृष्टेः आरम्भः अभवत्। घटिकात्रयम् वृष्टिः निरन्तरम् आगतवती। तदा तस्य शकटस्य चक्रम् मार्गे संसक्तमभवत्। सः शकटयाने उपविश्य, देव कृपया साहाय्यम् करोतु। तदा मार्गे एकः सज्जनः आगतवान्। भक्तम् दृष्ट्वा पृष्टवान्, भो मित्र, किञ्चित् साहाय्यम् आवश्यकम् वा? आगच्छतु, अहमपि साहाय्यम् करोमि इति। तदा भक्तः उक्तवान्, भवतः साहाय्यम् न आवश्यकम्, देवः अस्ति, सः एव साहाय्यम् करोति इति। तदा सज्जनः निर्गतवान्। वृष्टिः अधिकाभवत्। जलम् तस्य कण्ठपर्यन्तमागतम्। तदा पुनः एकः आगतवान्, पृष्टवान् च, भो मित्र, किञ्चित् साहाय्यम् आवश्यकम् वा? आगच्छतु, अहमपि साहाय्यम् करोमि इति। तदा भक्तः पुनः तत्रैव उपविश्य उक्तवान्, भवतः साहाय्यम् न आवश्यकम्, देवः अस्ति, सः एव साहाय्यम् करोति इति। सः अपि निर्गतवान्। वृष्टिः अधिका अभवत्। सः जले एव मृतवान्। तदा सः स्वर्गम् गतवान्। सः देवम् पृष्टवान्, देव, अहम् भवतः परमभक्तः अस्मि। यदा मम कष्टम् अभवत्, भवान् किञ्चिदपि साहाय्यम् न कृतवान्, किमर्थम् इति। तदा देवः उक्तवान्, भो भक्त, अहम् द्विवारमागतवान्, पृष्टवान् च, साहाय्यम् आवश्यकम् वा इति, परन्तु भवान् न स्वीकृतवान्, अहम् कथम् साहाय्यम् करोमि इति। तदा भक्तस्य ज्ञानोदयः अभवत्।
सुरभारती समुपासकाः श्रोतारः, भारतस्य वैविध्यमेवस्ति भारतस्य वैशिष्ट्यम्। साम्प्रतम् अग्रे चलामः एकम् भारतम् श्रेष्ठम् भारतम् प्रति, यत्र भ्राता ललितमोहन तिवारी प्रस्तौति।
प्रथमम् वाक्यम् अस्ति, विश्व स्वास्थ्य दिवसः प्रतिवर्षम् अप्रैल मासस्य सप्तमे दिने आचर्यते। विश्व स्वास्थ्य दिवस हर वर्ष 7 अप्रैल को मनाया जाता है। उड़िया भाषा में विश्व स्वास्थ्य दिवस प्रतिवर्ष 7 अप्रैल रे पालन करा जाए। द्वितीयम् वाक्यम् अस्ति, अस्य दिवसस्य उद्देश्यः जनानाम् स्वास्थ्यस्य महत्वबोधनम् अस्ति। इस दिवस का उद्देश्य लोगों को स्वास्थ्य के महत्व के प्रति जागरूक करना है। उड़िया भाषा में एही दिन रा उद्देश्य लोकमानन को स्वास्थ्य रा महत्व विषय रे सचेतन करिबा।
मित्राणि, भवद्भिः साकम् सम्भाषण सम्प्रवर्तनस्य प्रत्यावर्तन समयः अधुना सुसम्पन्नः जातः। साप्ताहिक्याः उपसंहाराय अहम् अनुज्ञापयामि सुषमा कुमारी। साप्ताहिकीति कार्यक्रमस्य विषये भवन्तः अपि स्वीयान् भावान् प्रकटयितुं शक्यन्ते। अस्माकम् ईमेल संकेतो वर्तते nsdsanskrit@gmail.com। इति आगामि सप्ताहे अस्मिन्नेव समये नूतनम् अंकम् आदाय पुनर्मिलामः। भवेत् तावत् शुभम् मंगलम् कामये।